सर्वेभ्यो नमस्कारः, सर्वेषां स्वागतम्। वयं अस्माकम् अन्तिमवर्गे वयं किं पठितवन्तः, कोऽपि स्मरन्ति वा? सविता भगिनी, भवती स्मरति वा? वयं
लुडन्तरूपं भगिनि,
सत्यं सत्यं, परन्तु का
षष्टिविभक्तिविषये
वयं पठितवन्तः, सत्यं सत्यं
पठितवन्तः,
षष्टिविभक्तिविषये वयं पठितवन्तः गीतासोपानं पुस्तके पेज् नम्बर् 28 मध्ये वयं पठितवन्तः। तस्मिन् विषये एव पुनः एकवारं पुनस्मरणं कृत्वा अग्रे गच्छामः। तत्र नूतन यदा वयं
नाम
यदा सप्तम अभ्यासः एव वयं कृतवन्तः, तत्र नूतनविषयः किं वयं षष्टिविभक्ति एव पठितवन्तः, परन्तु तत्र नूतनविषयः किं पठितवन्तः इत्युक्ते ल्युट् इति नूतनप्रत्ययस्य विषये वयं पठितवन्तः। तत् ल्युट् अन्तरूपं, ल्युट् अन्तरूपम् इति वदामः, ल्युडन्तरूपविषये वयं पठितवन्तः। यदा पठति इति अस्ति चेत् तस्य ल्युडन्तरूपं किं भवति?
पठनं करोति,
सत्यं। पश्यति इत्युक्ते
दर्शनं करोति,
सत्यं। खादति इत्युक्ते
खादनं करोमि,
करोति अथवा करोमि, सत्यम्। अनन्तरं मिलति,
मिलनं करोति,
अत्र के आगन्तवती इत्युक्ते सप्त जनाः अद्य आगतवन्तः, अहं क्रमेण पृच्छामि के वक्तव्यम् इति, के का वक्तव्यम् इति, अहं कः अथवा का वक्तव्यम् इति अहं पृच्छामि, ते एव वदन्तु। इदानीं सविता भगिनी एव वदतु। यदा अन्यक्रमः अस्ति चेत् अग्रे अहं पृच्छामि। अस्तु, अनन्तरं क्रीडति,
क्रीडनं करोमि,
सत्यम्। अनन्तरं स्मरति,
स्मरति, स्मरणं करोमि,
सत्यम्। गच्छति,
गच्छति, गमनं,
गमनं करोमि अथवा करोति, सत्यम्। आगच्छति,
आगमनं करोमि,
सत्यम्। तादृशं भवति ल्युट् अन्तरूपम् अथवा भाववाचकशब्दः इति वदामः, भाववाचकशब्दः सुलभतया इदानीं स्मर्तव्यम् इत्युक्ते भाववाचकशब्दः इति वयं वदामः। पठति, पठनं करोति, क्रीडति, क्रीडनं करोति, मिलति, मेलनं करोति, तादृशं वदामः चेत् भाववाचकशब्दः इति वदामः, सुलभतया वक्तव्यं चेत् इत्युक्ते। अनन्तरम् अन्यरूपः अस्ति, तस्य प्रत्ययः अस्ति ल्युट् इति नूतनरूपः अस्ति, प्रत्ययः अस्ति, प्रत्यय नाम ल्युट्, ल्युट्यन्तरूपम्। एतत् प्रत्ययः
भगिनि, क्रियापदस्य नामपदरूपं भवति ल्युडन्तरूपम्, सो इस् इट् नाट् करेक्ट् भगिनि?
सत्यं सत्यं, प्रत्ययः कथं भवति यदा ल्युट् इति प्रत्ययः क्रियापदं योजनेन वदामः चेत् तत् नामपदं भवति। यदा ल्युट् इति प्रत्ययः क्रियापदं योजयामः चेत्, क्रियापदेन योजयामः चेत् तद् नामपदं भवति। तस्य क्रमः, तस्य प्रत्ययस्य नाम किं? ल्युडन्तरूपम्।
लुडन्तरूपं
क्रियापदं नाम नामपदं भवति पठति इत्युक्ते क्रियापदं तस्य नामपदरूप नामपदरूपम् इति न वक्तव्यं तस्य लुडन्तरूपम् इत्युक्ते नामपदमेव भवति पठनं करोति पठनम् इति शब्दः नामपदं भवति सर्वदा पठनं मेलनं क्रीडनं खादनम् इति अस्ति चेत् तादृशरूपं सर्वदा नपुंसकलिङ्गरूपम् एव सर्वदा नपुंसकलिङ्गरूपम् एव पुल्लिङ्गः वा पुल्लिङ्गः वा अथवा स्त्रीलिङ्गः वा अथवा नपुंसकलिङ्गः वा इति प्रश्नः अस्ति चेत् ल्युडन्तरूपं सर्वदा लिङ्गं किं आम् नपुंसकलिङ्गम् एव भवति आम् अतः नपुंसकलिङ्गरूपं किं किं जलम् इति वदामः चेत् तस्य विभक्तिः का विभक्ति वदति वा जलम् अथवा वनं वनं वदतु वनं वनम् इति शब्दस्य विभक्तिः वदतु
वनं वनम् इति शब्दस्य प्रथमा विभक्ति एकवचनं वनं वने वनानि द्वितीया विभक्ति वनं वने वनानि एव
तृतीया
वनेन वनाभ्यां वनैः वनैः
सत्यं सत्यम् अनन्तरम् अनन्तरं चतुर्थी
वनाभ्यां वनैः
वनेभ्यः
वनेभ्यः
सत्यं धन्यवादः भगिनि धन्यवादः एकनिमिषः धन्यवादः अन्य कोऽपि अहं पृच्छामि एतत् पर्यन्तम् अवगच्छति वा
आं भगिनि
समीचीनं समीचीनं धन्यवादः भगिनि अनन्तरं ऊर्मिला भगिनि
आं भगिनि
आं पञ्चमी आरभ्य सप्तमी पर्यन्तं वदति वा वनं शब्दस्य विभक्तिः
वनात् वनाभ्यां वनेभ्यः वनस्य वनयोः वनानां वने वनयोः वनेषु
अस्तु समीचीनं किमर्थं वयं तस्य वनं इति शब्दस्य विभक्तिः वयं पठितवन्तः
ल्युडन्तरूपं नाम पदं नपुंसकलिङ्गम् अस्ति तदर्थं
सर्वदा नपुंसकलिङ्गं भवति अतः पठनम् इति अस्ति चेत् वनं शब्दं यदा उक्तवती तावदेव तादृशमेव भवति पठनम् इति शब्दस्य विभक्तिः अपि स्पष्टमस्ति वा अस्तु
लैक् पठनं पठनं पठे पठानि लैक्
सत्यं 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 समीचीनम् अस्तु धन्यवादः भगिनि अस्तु इदानीम् अग्रे पठामः वा धन्यवादः ऊर्मिला भगिनि
अस्तु धन्यवादः
माधवी भगिनि क्लीवलेण्ड् माधवी भगिनी अस्ति वा
आं भगिनि
भवत्याः पार्श्वे पुस्तकमस्ति वा भगिनि
अस्ति भगिनि
दृष्ट्वा वदति वा सप्तम अभ्यासः पुनः एकवारं दृष्ट्वा अग्रे गच्छामः पुनराभ्यासं कृत्वा अग्रे गच्छामः
भगिनि क्षम्यतां पुटसङ्ख्या कः
28
धन्यवादः
कोष्टकस्थैः उचितपदैः रिक्तस्थानानि पूरयत
सत्यं कोष्टकस्थैः उचितपदैः इत्युक्ते का विभक्तिः
उचित पदैः ऐ एम ब्लैंक भगिनि
चिन्ता मास्तु चिन्ता मास्तु सावधानेन चिन्तयित्वा वदतु अत्र परीक्षा नास्ति परीक्षा नास्ति सावधानेन चिन्तयित्वा वदतु अहं सम्यक् जानामि भवती जानाति इति भवती जानाति इदानीं भवती रामशब्दस्य विभक्तिः वदति वा
आं भगिनि रामः रामौ रामाः रामं रामे रामं रामौ रामान् रामेण रामाभ्यां रामैः
अत्रैव तिष्ठतु अत्रैव तिष्ठतु तृतीया पुनः वदतु
रामेण रामाभ्यां रामैः
सत्यम् इदानीं भवती वदतु कोष्टकस्थैः उचितपदैः
तृतीया बहुवचनं भगिनि.
सत्यम्. अवगच्छति वा?
आम् आं भगिनि.
अत्र नपुंसकलिङ्गशब्दः पदम् इति शब्दः नपुंसकलिङ्गशब्दः उचितपदैः कोष्टकस्थैः कोष्टकस्थम् उचितपदम् इति भवति. तस्य तृतीयं कोष्टकस्थैः उचितपदैः. अस्तु, तृतीया विभक्तौ अस्ति. अनन्तरं रिक्तस्थानानि पूरयत.
रिक्तस्थानानि बहुवचनं द्वितीया विभक्ति बहुवचनं खलु भगिनि?
द्वितीयबहुवचनम् इति अहं न चिन्तयामि. केवलं प्रथमविभक्तौ इति एव अस्ति इति मम चिन्तनं. आमां, द्वितीयविभक्तौ अस्ति भगिनि. आं, सत्यं सत्यं सत्यं. पूरयत, रिक्तस्थानानि पूरयत. आम्, अग्रे पठति वा?
वयं प्रतिदिनं जीवनचरित्रं पठामः. महापुरुषाणां वयं प्रतिदिनं महापुरुषाणां जीवनचरित्रं पठामः.
सत्यम्. अग्रे.
तेषां कवीनां कविताः रमणीयाः सन्ति.
तेषां कवीनां कविताः रमणीयाः सन्ति. अस्तु, समीचीनम्. अत्र विशेषणविशेषभावः अस्ति वा?
कवीनां विशेष्यमस्ति. तेषां विशेषणं रमणीयाः कविताः विशेष्यमस्ति. रमणीयाः विशेषणमस्ति.
सत्यं सत्यम्. अग्रे.
विवेकानन्दस्य डेश् पठनेन स्फूर्तिः लभ्यते. विवेकानन्दस्य वचनानां पठनेन स्फूर्तिः लभ्यते.
सत्यं सत्यम्. अग्रे.
तयोः मित्रयोः मैत्री जगत्प्रसिद्धा.
बहु समीचीनं. तयोः मित्रयोः मैत्री जगत्प्रसिद्धा. अस्तु, अत्र विशेषणविशेषभावः अस्ति वा?
मित्रयोः विशेष्यम् अस्ति. तयोः विशेषणम् अस्ति.
सत्यं.
मैत्री विशेष्यम् अस्ति. जगत्प्रसिद्धा विशेषणम् अस्ति.
सत्यं. किमर्थं मैत्री जगत्प्रसिद्धा विशेषणविशेषभावः अस्ति? लिङ्गं किं, तस्य लिङ्गं किं?
मैत्री स्त्रीलिङ्गशब्दः.
सत्यं, मैत्री स्त्रीलिङ्गशब्दः, नदीशब्दवत् भवति.
जगत्प्रसिद्धा अपि स्त्रीलिङ्गशब्दः.
प्रसिद्ध, सिद्धा, सिद्धः, सिद्धम् इति त्रिषु लिङ्गेषु भवति. सिद्ध इति शब्दः, सिद्धः, सिद्धा, सिद्धम् इति अस्ति. अत्र सिद्ध इति पदस्य अन्ते अस्ति. प्रसिद्धा इति अस्ति, स्त्रीलिङ्गरूपम् अस्ति. तस्य पूर्वमपि मैत्री इति नदीशब्दवत् पदमस्ति, स्त्रीलिङ्गरूपम् अस्ति. अतः विशेषणविषयभावः अस्ति. अत्र मैत्री इत्युक्ते किं भगिनि?
फ्रेण्ड्शिप् भगिनि.
सत्यं, स्नेहः. फ्रेण्ड्शिप्, फ्रेण्ड् इति नार्थः न, फ्रेण्ड्शिप् इति अर्थः. अस्तु, समीचीनं, धन्यवादः. एकम् अग्रे, एकमेव पठतु. अग्रे पठतु.
डेश् अनुसरणेन जीवने अनुशासनं भवति. नियमानाम् अनुसरणेन जीवने अनुशासनं भवति.
सत्यं, समीचीनं, धन्यवादः भगिनी. समीचीनं,
धन्यवादः.
समीचीनं. अग्रे, जानकी भगिनी पठितुं शक्नोति वा? अस्तु, चिन्ता मास्तु, पुस्तकं नास्ति किल, चिन्ता मास्तु.
मम समीपे पुस्तकं नास्ति भगिनि.
चिन्ता मास्तु, चिन्ता मास्तु, क्षम्यताम्. अस्तु, अग्रे शोभना भगिनि.
आं भगिनि.
भवत्याः पार्श्वे पुस्तकम् अस्ति वा?
अस्ति अस्ति.
आम्, पठितुं शक्नोति वा?
आम्. मध्ये सहकारभावः आवश्यकः.
कस्य मध्ये कार्य कर्तॄणां कार्यकर्तॄणां मध्ये सहकारभावः आवश्यकः.
सत्यं सत्यं. केषां मध्ये कार्यकर्तॄणां मध्ये सहकारभावः आवश्यकः. सहकारभावः इत्युक्ते किं भगिनि?
सहकारभाव इत्युक्ते doing it together, साथ में मिलकर करना,
मिलित्वा इत्युक्ते कोऑपरेशन् इति आङ्ग्लभाषायां वदामः किल, तदेव सहकारभावः. अत्र एकं वक्तुम् इच्छामि. आवश्यकः इति शब्दः अस्ति किल, अत्र सहकारभावः आवश्यकः इति अस्ति. अत्र विशेषभावः अस्ति. अत्र आवश्यकः इति शब्दः किञ्चित् विशेषणशब्दः अस्ति. किमर्थम् इत्युक्ते त्रिषु लिङ्गेषु भवति. यदा अहम् उक्तवती सिद्धम् इति त्रिषु लिङ्गेषु अस्ति किल, तादृशम् अस्ति आवश्यकः, आवश्यकी, आवश्यकम् इति त्रिषु लिङ्गेषु भवति. अत्र आवश्यकः इति पुल्लिङ्गशब्दः अस्ति किल, त्रिलिङ्गशब्दः कथं भवति?
आवश्यकी.
नपुंसकलिङ्गशब्दः?
नपुंसकलिङ्गं शब्दः आवश्यकम्.
सत्यं सत्यम्. इदानीम् अत्र आवश्यकः इति शब्दः अस्ति किल, तस्य पूर्वं कः शब्दः अस्ति, किं शब्दः अस्ति? सहकारभावः इति शब्दः अस्ति किल, तस्य लिङ्गं किं?
पुल्लिङ्गम्.
अतः आवश्यकः इति शब्दस्य पूर्वं सहकारभावः इति शब्दः अस्ति, तदपि पुल्लिङ्गशब्दः. आवश्यकः अपि पुल्लिङ्गशब्दः. विशेषणमस्ति आवश्यकः इति शब्दः विशेषणं, सहकारभावः इति शब्दः विशेषणं विशेष्यम्. अत्र उदाहरणार्थं आवश्यकः पुल्लिङ्गशब्दः, ग्रन्थः आवश्यकः, सहकारभावः आवश्यकः इति भवति. उदाहरणार्थं स्त्रीलिङ्गशब्दः अस्ति चेत् आवश्यकी इति अस्ति किल. अत्र रमा आवश्यकी, नदी आवश्यकी इति तादृशं, लता आवश्यकी इति वक्तुं शक्नुमः. अनन्तरं उदाहरणार्थं नपुंसकलिङ्गशब्दः अस्ति चेत् आवश्यकं भवति. लवणम् आवश्यकं, जलम् आवश्यकं, पत्रम् आवश्यकम् इति वक्तुं शक्नुमः.
प्रश्नः अस्ति अत्र, भवती उक्तवती सहकारभावः आवश्यकः, तत्र कृदन्त अस्ति वा कर्ता अस्ति? सहकारभावः आवश्यकः अत्र स्तप्रत्यय अस्ति वा प्रथमा विभक्ति अस्ति, कर्ता अस्ति, कर्तृपदम् अस्ति?
कर्तृपदं न भगिनि, स्तप्रत्ययः अपि नास्ति अत्र.
ओ, स्तप्रत्ययः नास्ति, कर्तृपदम् अस्ति.
सत्यम्. आम्, कर्तृपदम्. आम्, कर्तृपदं न भगिनि,
लैक् सहकारभावः अस्ति.
सहकारभावः अत्र भावः इति अस्ति किल, भावः नाम किं वक्तुं शक्नुमः, कथं वक्तुं शक्नुमः?
इमोशन्.
भावः अत्र भावः अस्ति. अत्र नामपदं नास्ति, रामः श्यामः इति तादृशं नास्ति. अत्र भावः अस्ति, इमोशन्.
सो अत्र कर्ता किम्?
अत्र तादृशं एतस्मिन् वाक्ये तादृशं नास्ति भगिनि.
कर्ता नास्ति.
कर्ता क्रिया तादृशं नास्ति अत्र.
नो भगिनि,
सत्यं सत्यं, भावः एव. आम् आम् आम्. कार्यकर्तॄणां मध्ये सहकारभावः आवश्यकः तावदेव अस्ति. अत्र कर्तृपदं क्रियापदम् इति तादृशम् अत्र नास्ति.
रुदन्त अपि नास्ति, रैट्?
नास्ति नास्ति.
अस्तु अस्तु, धन्यवादः
भगिनि. एकः प्रश्नः, सहकारभावः इति पुंलिङ्गम् अस्ति चेत् एकविंशतिः रूपाणि भवति, अतः तद् कर्तृ
नामपदमेव नामपदमेव
नामपदमेव
नामपदमिति वक्तुं शक्नुमः. भगिनी पुनः वदतु, सुधा भगिनी.
कर्ता एव किल सहकारभावः इति प्रथमविभक्तौ अस्ति, अतः तद् कर्ता एव किल अस्ति इति एव अस्ति, अकर्मकधातु अस्ति, अतः तदेव कर्ता किल प्रथमाविभक्तौ अस्ति.
कार्यकर्तॄणां मध्ये सहकारभावः अस्ति इति इति अस्ति चेत् क्रियापदम् अस्ति चेत् तदेव भवती वक्ति वदति किल.
आम् आवश्यकः अत्र अस्ति इति
स्थाने आवश्यक इति स्थाने अस्ति इति क्रियापदम् अस्ति चेत् भवति चेत् तदेव क्रियापदं कर्तृपदं भवति इति. आं भगिनि, तादृशं चिन्तयामः. सत्यं 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 भगिनि. आम् आम्
अस्तु भगिनि.
परन्तु अहं चिन्तितवती अहं किं चिन्तितवती इत्युक्ते अत्र कश्चन मनुष्यः किमपि न करोति, केवलं व्याकरणार्थम् अवगमनार्थं तादृशम् अवगन्तुं शक्नुमः. सहकारभावः इति शब्दः नामपदमस्ति, तदेव कर्तृपदं भवति इति चिन्तितुं शक्नुमः. सत्यम्.
आम् परन्तु सर्वदा कर्तृपदम् इति मनुष्यः एव इति न किल?
न न न सत्यं सत्यम् अवगच्छामि. सत्यं सत्यम्. आम् 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 तदपि अस्ति. आम्
व्याकरणशास्त्रे पदं यदि वदामश्चेत् सुप्तिङ्गन्तं पदम् अस्ति, तादृशं तादृशरीत्या सहकारभावः इति इट् अड्जस्ट्स् टु द पद एव, सो इट् इस् कर्ता, रैट्?
पुनः वदतु भगिनि.
सुप्तिङ् अन्तं पदम् अस्ति व्याकरणे, पदम् इस् काल् सुबन्धं वा तिङन्तं वा. सहकारभावः इति सुप् प्रत्यय एव अस्ति, अतः तद् कर्ता एव किल प्रथमाविभक्तौ अस्ति.
आं सत्यं सत्यं भगिनि सत्यं सत्यम्. इदानीं सुबन्धपदम् इति चिन्तयामः न चिन्तयामः, केवलं नामपदम् इति चिन्तयामः. किमर्थं चेत् सर्वे नामपदम् इति वदामः चेत् अवगच्छन्ति सर्वे.
आम् 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 अस्तु भगिनि, धन्यवादः. इन्टेन्शन् वास् नाट् टु कन्फ्यूस्, जस्ट् टु
गेट् इट् क्लियर्. नो प्राब्लम् भगिनि, चिन्ता मास्तु चिन्ता मास्तु.
धन्यवादः
उर्मिला भगिनि, यत् भवती उक्तवती तत् सत्यमेव भगिनि. इदानीं स्पष्टमासीत् वा?
अहं मन्ये कर्तृपदं सदा प्रथमविभक्त्या विभक्तौ अस्ति, तदर्थम् अहं पृच्छामि. सो ऐ डोण्ट् वाण्ट् टु गेट् कन्फ्यूस् अबौट् कृदन्त् एण्ड् बिकास् यु नो यु सेड् सहकारः सहकारभावः आवश्यकः, सो तदर्थं देट्स् अ विशेषणविशेषसम्बन्ध. कृदन्ते अपि विशेषणविशेषसम्बन्धः अस्ति, तदर्थम् अहं पृष्टवती.
समीचीनमेव, भवत्याः प्रश्नः समीचीनमेव. यद् सुधा भगिनी उक्तवती सा सुधा भगिनी समाधानं कृतवती, दत्तवती, तदपि सत्यम्. आम् आम् धन्यवादः, उत्तमचर्चा आसीत्, समीचीनम् अस्तु. अत्र आम् अत्र अहं किं वक्तुम् इष्टवती चेत्, आवश्यकः इति पुल्लिङ्गशब्दः, आवश्यकी इति स्त्रीलिङ्गशब्दः, आवश्यकं नपुंसकलिङ्गशब्दः अस्ति. अनन्तरम् अन्य विशेषणं स्वीकुर्मः, उत्तमः इति स्वीकुर्मः. उत्तमः, उत्तमा, उत्तमम्. कश्चन विशेषणे स्त्रीलिङ्गशब्दः अस्ति चेत् आकारः अस्ति, कश्चन स्त्रीलिङ्गशब्दे काचन स्त्रीलिङ्गशब्दः अस्ति, विशेषणम् अस्ति चेत्, स्त्रीलिङ्गशब्दः अस्ति चेत् ईकारः अस्ति. उदाहरणार्थम् आवश्यकी इति ईकारदशब्दः, विशेषणमेव अस्ति. उत्तम इति पदम् उपयोगं कुर्मः चेत् उत्तमा इति आकारान्तशब्दः एव अस्ति. उत्तमा, उत्तमा लता, उत्तमा बालिका, उत्तमा रमा, उत्तमा लता, उत्तमा नदी इति भवितुमर्हति. अनन्तरं सुन्दरं, सुन्दरः इति पदं स्वीकुर्मः चेत् सुन्दरः पुल्लिङ्गशब्दः. सुन्दरा इति न भवति, सुन्दरी, स्त्रीलिङ्गशब्दः सुन्दरी इति भवति. सुन्दरः, सुन्दरी, सुन्दरम्. सुन्दरः पुल्लिङ्गशब्दः, सुन्दरी स्त्रीलिङ्गशब्दः, सुन्दरं नपुंसकलिङ्गशब्दः भवति. सर्वदा स्त्रीलिङ्गशब्दः विशेषणं स्त्रीलिङ्गशब्दः अस्ति चेत् आकारान्ते एव भवति इति नास्ति. कश्चन समये आकारान्तः भवति, कश्चन समये ईकारान्तः अपि भवति.
कथं जानीमः?
अभ्यासेन भवति, अभ्यासेन. वयं पठामः किल, तादृशम् अभ्यासेन भवति. वयमपि नूतनविषय पदानि अपि ज्ञास्यामः अग्रे गत्वा, सुलभः भवति. अवगच्छन्ति किल सर्वे? वीना बेट् भगिनी अवगच्छति वा?
आं भगिनि.
प्रश्नः अस्ति वा?
न.
अस्तु, समीचीनम्. इदानीं शोभना भगिनी एव पठति किल? अग्रे पठति वा?
ऐक्यं न सुलभम्.
ऐक्यम्, ऐक्यम्,
ऐक्यम्, ऐक्यं न सुलभम्. ऐक्यं न सुलभम्. मतीनां
न सत्यम्.
मतीनाम् ऐक्यं न सुलभम्.
मतीनाम् ऐक्यं न सुलभं, बहु कठिनः अस्ति. मतीनाम् ऐक्यं न सुलभं, समीचीनम्. अनन्तरम् अग्रे
अद्यत्वे अद्यत्वे जलं कलुषितं भवति.
अद्यत्वे जलं कलुषितं भवति, सत्यम्. वदतु.
अद्यत्वे नदीनां जलं कलुषितं भवति,
सत्यम्. अद्यत्वे नदीनां जलं कलुषितं भवति. नदीनां षष्ठी बहुवचनम् अस्ति. अद्यत्वे इति शब्दः अस्ति किल, अत्र इदानीं तस्मिन् विषये एकं तस्मिन् एतस्मिन् पदस्य विषये एकं वक्तुम् इच्छामि. इदानीं पुस्तकम् इति पदं स्वीकरोतु. तस्य भावः किम्? वयं न पठितवन्तः. अहं वदामि, किञ्चित् वदामि. पुस्तकम् इति अस्ति चेत् पुस्तकत्वं. पुस्तकमिति अस्ति किल, एकं पुस्तकं स्वीकरोतु. तस्मिन् एकः गुणः अस्ति, तस्य भावः अथवा गुणः अस्ति. तस्य नाम किं? पुस्तकत्वम्. अनन्तरं किं वक्तुम् इच्छा? पुस्तकत्वं. सुन्दरमिति अस्ति किल, स्वीकरोतु. सुन्दरमिति पदम् अस्ति इति स्वीकरोतु. तस्य सुन्दरं नास्ति, न सुन्दरं नास्ति, समीचीनं न भवति. पुस्तकत्वं घटम् इति स्वीकरोतु. घटं, घटं नाम पाट्. तस्य भावः अथवा तस्य गुणः किम् इत्युक्ते घटत्वम् इति वदामः. इति वदामः. तादृशम् अस्ति. सुन्दरम् इति पदं स्वीकरोतु. सुन्दरम् इति, सुन्दरम् इति शब्दस्य भावः किं? सुन्दरत्वम् इति अस्ति. तादृशम् अस्ति. अद्य इति, अद्य नाम किं? टुडे किल. अद्य नाम टुडे. अद्य इति शब्दस्य भावः किम्? अद्यत्वम्. अद्यत्वम् इति अस्ति. तस्य विभक्तिः अपि अस्ति. नपुंसकलिङ्गशब्दः भवति, तस्य विभक्तिः अपि अस्ति. तस्य विभक्ति सप्तमी विभक्तौ कथम् अस्ति चेत् अद्यत्वे. अद्यत्वे नाम इदानीन्तनकाले, नौ वडेस्, तादृशार्थः भवति. अद्यत्वम् इति शब्दः अस्ति, तस्य सप्तमी रूपम् अद्यत्वे. अद्यत्वे नदीनां जलं कलुषितं भवति. अवगच्छति वा?
आम् आं भगिनि.
अवगच्छति वा? अस्तु, अत्र विशेषणविशेषभावः अस्ति वा एतस्मिन् वाक्ये?
जलं कलुषितं.
सत्यम्. अस्तु, अत्र विशेष्यं किं, विशेषणं किं?
कलुषितं विशेष्य जलं कलुषितं विशेषण.
सत्यं, बहु समीचीनं. कलुषितं जलम् अथवा जलं कलुषितं भवितुम् अर्हति. सर्वे अवगतवन्तः वा अहं किं वक्तुम् इच्छामि इति? सविता भगिनी अवगच्छति वा?
आं भगिनि
अवगच्छामि.
प्रश्नः अस्ति वा? न भगिनि, न भगिनि. बहवः आवश्यकाः. So, like Sudha Bhagini was telling that something's Subanta. So that I didn't understand, Bhagini. What is that?
Chinta masto. See, there are two things. When you take a word, okay, ekam ekaha shabdah asti chet, kevalam dvayam kevalam dvayam dvayam eva asti. Kim asti? Noun athava verb asti kila?
आं भगिनि.
नौन् इत्युक्ते नामपदम्, क्रियापदम्.
क्रियापदम्
तावदेव. नामपदम् अन्यपर्याय समानार्थकशब्दः अस्ति सुबन्तम् इति पदम्. सिनोनिम् इति चिन्तयतु. पर्यायपदं नामपदम् अथवा सुबन्तपदम्. तावदेव. चिन्ता मास्तु, तस्मिन् विषये अधिकं चिन्ता मास्तु. नामपदमिति स्वीकरोतु, क्रियापदमिति स्वीकरोतु. अत्र सहकारभावः इति अस्ति
चेत्
सहकारभावः इति शब्दः नामपदम् अस्ति, प्रथमाविभक्तौ अस्ति, अतः कर्तृपदं वा इति शोभना भगिनी ऊर्मिला भगिनी पृष्टवती. तस्मिन् विषये सुधा भगिनी समाधानं कृतवती. आम्, सहकारभावः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः कर्तृपदम् इति सा उक्तवती.
आं भगिनि.
भवती न अवगच्छति वा?
नार्मली द सेण्टेन्स् विल् हाव् ए कर्तृपदम् अण्ड् देन् क्रियापदं.
सत्यं, सत्यम्. आम्, अत्र क्रियापदं लिखितं न लिखितम् अस्ति, परन्तु अस्ति
अस्ति एव
सहकारभावः अस्ति इति चिन्तयतु.
आं भगिनि.
अस्ति इति क्रियापदम् अत्र न लिखितं, परन्तु अत्र भवति. अत्र कर्तृपदं कुत्र अस्ति चेत्, यः पदं प्रथमविभक्तौ अस्ति तदेव कर्तृपदम् इति.
अवगच्छामि.
तावदेव, तावदेव. तस्य अधिकं नास्ति
भगिनि. पुनः पुनः वदतु. अद्य
धन्यवादः भगिनि.
धन्यवादः. का पृच्छति?
अमि शोभना.
अस्तु अस्तु, वदामि, पुनः एकवारं वदामि.
अद्यत्वे इति कीदृशपदं?
यदा एकं पदं, पदमिति न, एकं वस्तु स्वीकरोतु. यदा जलम् इति एकं चिन्तयतु, जलं जले किम् अस्ति इत्युक्ते जलत्वम् अस्ति.
जलत्वं
अहं हिन्दीभाषा न जानामि.
ऐ अण्डर्स्टेण्ड् जलत्व, अद्यत्व, सुन्दरत्व, किन्तु उसको क्या बोलते हैं, लाइक व्हाट इज द what kind of word is that, how you
see. Adhikam chinta mastu, kevalam avagamanartham aham vadami. Yada vayam ekam vastu svikurmaha, yada pustakam athva yada padam athva anything kimapi vastu svikarato, tasmin kim asti ityukte, tasmin kim asti ityukte pustakam पुस्तके किम् अस्ति पुस्तकत्वम् अस्ति सुन्दरम् इति पदे किम् अस्ति सुन्दरत्वम् अस्ति अद्य इति पदे किम् अस्ति अद्यत्वम् अस्ति तादृशपदं गुणम् इति वदामः अद्य इति शब्दे किम् अस्ति इति अद्यत्वम् इति गुणः अस्ति इति वयं वदामः
भावः
अथवा गुणः इति वदामः अतः अद्यत्वम् अद्यत्वम् इति शब्दः अस्ति तस्य सप्तमी विभक्ति किम् इत्युक्ते अद्यत्वे अद्यत्वे नदीनां जलं कलुषितं भवति
तदेव
भवत्याः प्रश्नः वा अहं समाधानं दत्तवती वा
आम् आम् धन्यवादः
बुद्धं वा बुद्धं वा
what is that again
बुद्धं वा नाम अवगतवती वा
बुद्धं भगिनि
समीचीनं धन्यवादः जानकी भगिनी अवगच्छति वा
आं भगिनि अवगच्छामि
वदतु भगिनि शोभना भगिनि
अग्रे
आम् स्पष्टमस्ति किल एतत् पर्यन्तं
स्पष्टम् अस्ति
अग्रे पठतु
अश्वपालकः पालनं करोति अश्वपालकः अश्वानां पालनं करोति
सत्यं सत्यं
गुरु आज्ञा पालनीया गुरुणां आज्ञा पालनीया
सत्यं गुरूणाम् आज्ञा पालनीया सत्यं समीचीनं अत्र विशेषणविशेषभावः अस्ति वा
आज्ञा पालनीया सो आज्ञा इस् आज्ञा विशेष्य पालनी
चिन्तयित्वा वदतु
पालनीया विशेष्य आज्ञा विशेषणम्
सुधा भगिनी तत् सत्यं वा
प्रश्नः कः भगिनि
भगिनी शोभना भगिनी पुनः वदतु विशेषणविशेषभावः अस्ति वा कः विशेष्यं कः विशेषणम् इति वदतु पुनः एकवारं
ओके ओके पालनीय अहं वदामि पालनीय इति विशेष्य आज्ञा इति विशेषणः इति
आज्ञा इति विशेष्यमस्ति पालनीयम् इति विशेषणमस्ति
पालनीया
अत्र पालनीया स्त्रीलिङ्गे अस्ति आज्ञा पालनीया
किमर्थं विशेषणविषयभावः अस्ति चेत् आज्ञा इति शब्दः स्त्रीलिङ्गशब्दः अस्ति प्रथमं कुत्र विशेषणविशेषभावः अस्ति इति वयं कथम् अवगन्तुं शक्नुमः चेत् प्रथमं कुत्र विशेष्यम् अस्ति इति द्रष्टव्यं विशेषणं नाम कुत्र नामपदम् अस्ति पुल्लिङ्गशब्दः अस्ति वा नपुंसकलिङ्गशब्दः अस्ति वा अथवा स्त्रीलिङ्गशब्दः अस्ति वा इति प्रथमं तद् द्रष्टव्यम् अत्र आज्ञा इति नामपदम् अस्ति तस्य लिङ्गं किम्
स्त्रीलिङ्गं
अतः तस्य विशेषणं किम् अस्ति
पालनीया
तादृशं द्रष्टव्यं क्रमेण द्रष्टव्यं कुत्र नामपदमस्ति पुल्लिङ्गं वा स्त्रीलिङ्गं नपुंसकलिङ्गं वा इति भवितुम् अर्हति किल अतः कुत्र नामपदमस्ति इति द्रष्टव्यम् अनन्तरं तस्य लिङ्गं ज्ञातव्यं ज्ञात्वा विशेषणं कुत्र अस्ति इति द्रष्टव्यम् स्पष्टमस्ति किल भगिनि प्रश्नः अस्ति वा एतस्मिन् पाठस्य विषये प्रश्नः अस्ति वा
न
समीचीनं क्षम्यतां
धन्यवादः
धन्यवादः नमस्कारः अस्तु क्षम्यतां सुधा भगिनी
अस्तु भगिनि
अत्र तृतीयवाक्ये तृतीयवाक्ये तृतीयवाक्यम् अनन्तरं पञ्चमवाक्यं तस्मिन् विषये किञ्चित् चर्चां कुर्मः वयम्. अस्तु, विवेकानन्दस्य पठनेन स्फूर्तिः लभ्य विवेकानन्दस्य डेश् पठनेन स्फूर्तिः लभ्यते. विवेकानन्दस्य वचनानां वदतु.
वचनानां पठनेन स्फूर्तिः लभ्यते.
सत्यं सत्यं, विवेकानन्दस्य वचनानां पठनेन स्फूर्तिः लभ्यते. अत्र एतस्मिन् वाक्ये ल्युडन्तरूपम् अस्ति वा?
आं भगिनि, पठनम् इति ल्युडन्तम् अस्ति, पठनेन इति तृतीया, तस्य तृतीया.
सत्यम्. इदानीं गतवर्गे यदा वयं वारद्वयं तस्य पूर्वं वयं यदा वयं मिलितवन्तः तस्मिन् समये एतस्मिन् विषये एव वयं पठितवन्तः, किञ्चित् अधिकं चर्चा कृतवन्तः. तस्मिन् विषये एव पुनः अहं वदामि. अत्र पठनम् इति अस्ति, तस्य तृतीयविभक्ति पठनेन इति अस्ति किल. पठनम् इति नामपदं वा क्रियापदं वा?
पठनम् इति नामपदम् अस्ति.
सत्यं, समीचीनं. नामपदम् अस्ति चेत् तस्य पूर्वं का विभक्तिः भवति?
भवती उक्तवती ल्युडन्तम् अस्ति चेत् तस्य पूर्वं षष्टि भवति इति.
सत्यं सत्यम्. अतः एतस्मिन् वाक्ये कथम् अस्ति वाक्ये?
विवेकानन्दस्य वचनानां
वचनम् इति शब्दः नपुंसकलिङ्गशब्दः, तस्य तृतीया सोरि षष्टी बहुवचने वचनानां भवति. वचनस्य अथवा वचनानां पठनेन स्फूर्तिः लभ्यते. अस्तु, इदानीं पठनम् इति ल्युडन्तरूपम् अस्ति चेत् तस्य पूर्वं सर्वदा षष्टिविभक्तिः एव भवति. सर्वे स्मरन्तु, एतत् एतत् विषयं प्रमुखविषयः अस्ति, भ्रमात्मिकविषयः अपि अस्ति. अतः एकवारं वयं पठामः चेत् मनसि स्पष्टीकरणं न भवति. अधिकवारं वारं वारं पठनीयमस्ति. अग्रे गत्वा गत्वा वयं पठामः. प्रथमवारम् एव वयम् इदानीं पठामः, अतः न अवगच्छन्ति चेत् भीतिः मास्तु. प्रयत्नं करोतु, परन्तु भीतिः मास्तु. अग्रे गत्वा गत्वा तस्मिन् विषये अधिकं पठामः, अभ्यासमपि कुर्मः. इदानीं कठिनः अस्ति, केवलम् अभ्यासार्थमेव सुलभः भवति किल कश्चन विषयः, तावदेव. अस्तु, इदानीं पठनम् इति ल्युडन्तरूपम् अस्ति, तस्य पूर्वं सर्वदा षष्टिविभक्तिः अस्ति. समीचीनम्. इदानीं पठनम् इति नामपदम् अस्ति, तस्य ल्युडन्तरूपम् अस्ति, तस्य क्रियापदं कथं भवति?
पट् धातुतः आयाति, पठति.
पठति, पठति एव क्रियापदम्. समीचीनं, पठति इति क्रियापदम् अस्ति, तस्य ल्युडन्तरूपं किम् अस्ति?
पठनं.
पठनं, समीचीनम्. इदानीम् अत्र पठनेन इति स्थाने पठति इति अस्ति चेत् पठति इति स्वीकरोतु, क्रियापदम् इति अस्ति इति स्वीकरोतु, चिन्तयतु. पठति इति अस्ति चेत् तस्य पूर्वं कथं भवति? वचनानाम् इति शब्दः कथं परिवर्तनं भवति?
पट् धातु इति सकर्मकधातु अस्ति, अतः तस्य द्वितीया विभक्ति भवति, एक कर्मपदं भवति.
अतः नियमः समीचीनमेव, परन्तु अत्र एतस्मिन् वाक्ये पदं शब्दः कथं भवति?
विवेकानन्दस्य वचनानि पठति.
विवेकानन्दस्य वचनानि द्वितीया विभक्तौ, द्वितीया विभक्तिः भवति. यदा क्रियापदम् अस्ति चेत् सकर्मक वा अकर्मक वा इति द्रष्टव्यम्. अस्तु, सकर्मक अस्ति चेत् तस्य पूर्वं द्वितीया विभक्तिः भवति. अत्र वचनानाम् इति शब्दः अस्ति, षष्टिविभक्तौ अस्ति किल, अतः तस्य द्वितीया विभक्तौ कथं भवति? वचनानि इति अस्ति, अतः वचनानि एव भवति. विवेकानन्दस्य वचनानि पठति इति सुलभवाक्यं, सरलवाक्यम् अस्ति अत्र. द्वितीयदा क्रियापदम् अस्ति चेत् नियमः अहं पुनः वदामि सर्वेषां कृते, सर्वे सावधानेन शृण्वन्तु. यदा क्रियापदमस्ति तस्य पूर्वं क्रियापदमस्ति चेत् सकर्मक वा अकर्मक वा इति प्रथमं द्रष्टव्यम्। सकर्मकः अस्ति चेत् कर्मपदं भवितुम् अर्हति, सर्वदा भवति इति नास्ति, भवितुम् अर्हति। अकर्मकक्रियापदम् अस्ति चेत् कर्मपदं न भवति। अस्तु, इदानीं द्वितीयनियमः अस्ति अत्र, पठति इति क्रियापदं युडन्तरूपेण कथं परिवर्तनं भवति भगिनि?
पठनम्
इति भवति चेत्, पठनम् इति भवति, अत्र पठनेन इति तृतीया विभक्तौ अस्ति। अस्तु, अतः यदा ल्युडन्तरूपम् अस्ति तस्य पूर्वं का विभक्तिः आगच्छति?
षष्टि।
यदा क्रियपदम् अस्ति चेत् तस्य पूर्वं का विभक्तिः आगच्छति?
द्वितीया अस्ति चेत्।
आम्, सत्यं सत्यम्। आम्, सर्वे श्रुतवन्तः वा? स्पष्टम् अस्ति वा? अस्तु, अहं पृच्छामि। धन्यवादः सुधा भगिनी।
धन्यवादः भगिनि।
धन्यवादः। वीणाबेन् भगिनी।
क्षम्यतां भगिनी, मम गृहात् ध्वनिः आगच्छति अद्य।
चिन्ता चिन्ता मास्तु, चिन्ता मास्तु
अद्य।
अस्तु, चिन्ता मास्तु भगिनि। आम्, चिन्ता मास्तु, सूचनार्थं धन्यवादः एव। चम्पा भगिनि।
आं भगिनि।
आम्, यदा पठति इति क्रियापदम् अस्ति चेत् तस्य पूर्वं का विभक्तिः भवति? सकर्मकक्रियापदम् अस्ति चेत् तस्य पूर्वं का विभक्तिः भवति?
द्वितीया।
सत्यं, बहु समीचीनं। कर्मपदं भवति। समीचीनं। यदा पठति इति क्रियापदं लिडन्तरूपेण कथं परिवर्तनं भवति?
पठनं
भवति। सत्यं, यदा पठनम् इति अस्ति चेत् तस्य पूर्वं का विभक्तिः भवति आगच्छति?
षष्ठी विभक्ति।
सत्यं सत्यं। प्रमुखनियमः अस्ति, गच्छता कालेन सुलभः भवति। नियमः वयं अवगच्छामः चेत् सुलभः भवति। समीचीनं भगिनि,
धन्यवादः।
अग्रे, आम्, अग्रे एकनिमिषः भगिनि, भवती एव वदतु, पञ्चमवाक्यं स्वीकरोतु। पञ्चमवाक्यं भवती पठति वा?
पञ्चमवाक्यं नियमानाम् अनुसरणेन जीवने अनुशासनं भवति।
नियमानाम् अनुसरणेन जीवने अनुशासनं भवति। अस्तु, अत्र नियमानाम् अनुसरणेन, अत्र अनुसरणेन इति अस्ति किल, तस्य क्रियापदं किम्?
क्रियापदम् अनुसरणम्, अनुसरति।
सत्यं, बहु समीचीनं, बहु समीचीनं। अनुसरति क्रियापदम् अस्ति, तस्य ल्युडन्तरूपं किम्?
अनुसरणम्।
अनुसरणं करोति, बहु समीचीनम्। इदानीम् अनुसरति इति अस्ति इति चिन्तयतु, अनुसरति इति क्रियापदम् अस्ति इति चिन्तयतु, तस्य पूर्वं का विभक्तिः भवति?
द्वितीया विभक्तिः भवति।
सत्यं सत्यम्। अत्र एतस्मिन् वाक्ये नियमानाम् इति शब्दः अस्ति, षष्ठी विभक्ति बहुवचने अस्ति, तस्य द्वितीया विभक्ति विभक्तौ कथं भवति? अनुसरति इति क्रियापदम् अस्ति चेत्
अनुसरति षष्ठी विभक्ति अनुसर
भवती उक्तवती, क्रियापदम् अस्ति चेत् तस्य पूर्वं द्वितीया विभक्तिः भवति इति।
आम्,
आम्, अत्र पदमस्ति नियमानाम् इति पदमस्ति,
षष्ठी विभक्ति भवति।
इदानीं भवती द्वितीयविभक्तौ वदतु।
ओ, द्वितीयविभक्तौ
अनुसरति इति अस्ति चेत् द्वितीयविभक्ति एव भवति किल?
अनुसरति पूर्वे द्वितीयविभक्ति,
पूर्वं नियमः इति, नियमः इति क्रियापदम् इति नामपदम् अस्ति।
नियमम्,
अस्तु, बहुवचने नियमानाम् इति बहुवचन, षष्ठी बहुवचने अस्ति किल?
आम्,
अतः द्वितीय बहुवचने कथं भवति?
द्वितीय बहुवचने नियमान्,
नियमान् बहु समीचीनं, सत्यं सत्यं, नियमान् अनुसरति इति भवति। एकवचने नियमम् अनुसरति, बहुवचने नियमान् अनुसरति इति भवति। इदानीम् अत्र अनुसरति इति पदस्य ल्युडन्तरूपं किं भवति?
अनुसरणम्।
सत्यम्। अनु ल्युडन्तरूपम् अस्ति चेत् तस्य पूर्वं का विभक्तिः आगच्छति? सत्यम्। अतः अत्र अनुसरणेन इति अनुसरणम् इति शब्दः अस्ति, तस्य तृतीया अनुसरणेन इति अस्ति भवति। अस्तु, तस्य पूर्वं का विभक्ति तस्य पूर्वं का
षष्टि विभक्ति भवति?
नियमानाम् अनुसरणेन इति अस्ति। स्पष्टमस्ति किल?
आं भगिनि, आम्।
समीचीनम्।
धन्यवादः।
अत्र एतस्मिन् वाक्ये भवति इति क्रियापदमस्ति किल? भवति अस्ति किल? तस्य पूर्वम् अनुशासनम् इति अस्ति, कर्मपदमस्ति वा? अनुशासनम् इति पदं कर्मपदम् अस्ति वा?
अनुशासनं कर्मपदम् अस्ति, अनुशासनं क्रियापदम् अस्ति आल्सो। अनुशासनम् अनु इज उपसर्ग। सत्यं भगिनि?
न भगिनि, अत्र भवति एव क्रियापदमस्ति। यद् भवती उक्तवती तत्सर्वं सत्यम्। अग्रे अहं माधवी भगिनीं पृच्छामि, सा साहाय्यं करोति। अस्तु, धन्यवादः भगिनि, धन्यवादः। चम्पा भगिनी किल? धन्यवादः भगिनि, सम्यक्तया उक्तवती।
धन्यवादः।
इदानीं माधवी भगिनी, क्लीवलेण्ड् माधवी भगिनी।
आं भगिनि,
साहाय्यं करोति वा? अत्र पञ्चमवाक्ये भवति इति क्रियापदमस्ति।
आं भगिनि,
तस्य पूर्वम् अनुशासनम् इति एकं पदम् अस्ति।
आं भगिनि,
तत् पदं कर्मपदं वा?
अनुशासनं भवति अकर्मक धातुः अस्ति,
तदेव प्रमुखविषयः।
तदर्थम् अनुशासनं कर्तृपदं भवति।
सत्यं। कर्तृपदमिति न वदतु, प्रथमविभक्तौ अस्ति इति वदतु।
प्रथमविभक्तौ
यदा सर्वदा वयं प्रथमाविभक्तिः अस्ति चेत् कर्तृपदं कर्तृपदमिति चिन्तयामः चेत् किञ्चित् अर्थभेदः अपि भवति, अतः प्रथमाविभक्तौ अस्ति इति चिन्तयतु।
आं भगिनि,
अनुशासनं तत् प्रथमविभक्तौ अस्ति।
आं भगिनि,
तत् बहु समीचीनं भगिनि, भवती अवगतवती वा चम्पा
भगिनि?
यदा वयं सर्वदा यदा वयं क्रियापदं पश्यामः चेत् अस्माकं मनसि किं कथं चिन्तनं भवति भविष्यति?
यदि अकर्मक
अस्ति, अकर्मक वा सकर्मक वा इति चिन्तनम् आवश्यकम् अस्ति। यदा वयं भवती जानाति वा न जानाति वा इति द्वितीय प्रश्नः। परन्तु यदा वयम् एकं क्रियापदं पश्यामः चेत् नयति, पश्यति, क्रीडति इति अस्ति चेत् ओ तद् सकर्मकः भवितुम् अर्हति, अकर्मकः भवितुम् अर्हति इति प्रथमक्रमः अस्ति। अनन्तरं द्रष्टव्यम् अस्ति, ओ सकर्मकः वा अकर्मकः वा इति द्रष्टव्यम् अस्ति। इदानीं भवति इति क्रियापदम् अकर्मकः अस्ति, अतः तस्य पूर्वं यत् पदम् अस्ति तत् सर्वदा प्रथमविभक्तौ एव भवति। अनुशासनं नपुंसकलिङ्गशब्दः प्रथमविभक्तौ अस्ति। तावदेव, तदेव अहं वक्तुम् इच्छितवती। तृतीयवाक्ये पञ्चमवाक्ये ल्युडन्तरूपस्य परिवर्तनम् अस्ति चेत् कथं भवति इति अस्माकं किञ्चित् ज्ञानम् आवश्यकम् अस्ति, तदेव वयं चर्चां कृतवन्तः। अस्तु, समीचीनं,
धन्यवादः भगिनि,
धन्यवादः भगिनि, समीचीनं, धन्यवादः। अस्तु, अन्य कोऽपि कः अथवा का पठितुम् इच्छति?
अस्तु, अहं कर्तुं शक्नोमि
भगिनि वा?
आं,
समीचीनं। चम्पा भगिनी भवती म्यूट् करोति वा कृपया?
आं भगिनि,
समीचीनं, धन्यवादः भगिनि। वीणाबेन भगिनी भवती पठतु कृपया।
अष्टमः?
आम्, अष्टमाभ्यासः, सत्यम्।
आम्, बन्धुवाचकपदानि पठत।
वाक्यानि पूरयत च.
सत्यं भगिनि, सत्यं भगिनि.
उदाहरण
अत्र बन्धुवाचकानि पदानि सन्ति. अस्तु.
पितुः पिता पितामहः.
अत्र स्तम्भः त्रयम् अस्ति. स्तम्भः नाम त्री कालम्स्. स्तम्भः त्रयम् अस्ति. प्रथमम् अस्ति, प्रथमस्तम्भे किम् अस्ति? पितुः पिता, मातुः पिता इति सम्बन्धः इति न, कयोः द्वयोः मनुष्यः, मनुष्यः द्वयम् अस्ति. पिता इति एकः अस्ति, माता इति एकः अस्ति. माता एक माता अस्ति, एकः पिता अस्ति. अनन्तरं द्वितीयस्तम्भे तयोः मध्ये कः सम्बन्धः, सम्बन्धस्य नाम द्वितीयस्तम्भे अस्ति. सत्यं, स्तम्भ द्वितीयस्तम्भे एव सम्बन्धस्य नाम अस्ति. अस्तु, अस्तु. आम् सत्यं भगिनि. अत्र प्रथमपितुः पिता इति अस्ति, बन्धुः इति अस्ति. बन्धुः नाम किम् इत्युक्ते पितामहः, पितामही, मातामहः, मातामही इति बन्धुः नाम. अस्तु, इदानीं भवती पठतु भगिनि, वीणाबेन भगिनि.
पितुः पिता पितामहः. लवः दशरथः.
तयोः मध्ये कः सम्बन्धः अस्ति?
पितामहः अपि च पौत्र.
सत्यं, केवलम् एकमेव वदतु, इदानीमेव भ्रमः न आवश्यकं, केवलम् एकमेव वदतु. लवस्य
पितामहः दशरथः.
अत्र यदा सम्बन्धं सूचयितुम् इच्छामः तत्र षष्ठीविभक्तिः आगच्छति, उपयोगं करोति. तदेव वयं विभक्तिवलर्यां पुस्तके अपि वयं पठितवन्तः. यदा मनुष्यः द्वयं, द्वे मनुष्याः स्तः, तयोः मध्ये कः सम्बन्धः इति सूचयितुम् इच्छामः चेत् सर्वदा षष्ठीविभक्तिः आगच्छति. अस्तु, अत्र लवः दशरथः, पितामहः इति वदतु. पुनः एकवारं पठतु, पठित्वा वदतु.
लवस्य पितामहः दशरथः.
दशरथः, समीचीनम्. अनन्तरं
लवस्य पितामही कौसल्या.
सत्यं.
कुशः मातामहः जनकः.
सत्यं, सत्यं.
कुशः मातामही सुमेधा.
सुमेधा.
दशरथस्य पौत्रः लवः.
सत्यं.
जनकस्य दौहित्रः कुशः. लक्ष्मणस्य भातृजाया सीता. सीतायाः देवरः लक्ष्मणः.
सत्यम्.
अर्जुनस्य श्यालः दृष्टद्युम्नः.
देवरः इत्युक्ते, देवरः इति उक्तवती किल, इत्युक्ते नाम तस्य अर्थः कः? पत्युः सहोदरः. पत्युः षष्ठीविभक्तिः अस्ति. पत्युः सहोदरः देवरः. सीतायाः पत्युः कः? आम् वदतु
भगिनि. एकः सन्देहः भगिनि.
वदतु.
इदा शब्दः बन्धुवाचकशब्दः वा भगिनि?
के भगिनि, किं भगिनि? आम्, यद्वयं पठामः तत् सर्वं बन्धुवाचकशब्दाः. आम्,
दट्स् व्हाट् आई एम आस्किंग. ओके,
धन्यवादः. सत्यं, सत्यम्. आम्, वदतु भगिनि.
अर्जुनस्य श्यालः दृष्टद्युम्नः.
आम्, श्यालः नाम किं? पत्न्याः सहोदरः श्यालः. अर्जुनः, अर्जुनस्य पत्नी का?
बै. ब्रदर्
न न अर्जुनस्य पत्नी का
अर्जुनस्य पत्नी सुभद्रा
पत्नी पत्नी अस्तु सुभद्रा अपि अस्ति
द्रौपदी अपि द्रौपदी
द्रौपदी द्रौपद्याः सहोदरः कः
द्रौपद्याः सहोदरः दृष्टद्युम्नः
सत्यम् इदानीम् अर्जुनः अस्ति दृष्टद्युम्नः अस्ति तयोः मध्ये कः सम्बन्धः अस्ति चेत् श्यालः इति अर्थः अर्जुनस्य शालः दृष्टद्युम्नः सत्यम् अग्रे भगिनि धन्यवादः भगिनि
धन्यवादः भगिनि
नमस्कारः सविता भगिनि
आं भगिनि रुक्मिण्याः ननन्द सुभद्रा ननन्द सुभद्रा
ननन्द इत्युक्ते
पत्युः भगिनी
सत्यं सत्यं रुक्मिण्याः पतिः का
कृष्णः
कः पतिः कः क्षम्यतां
कृष्णः
कृष्णः कृष्णस्य भगिनी
भगिनी सुभद्रा
सत्यम् अतः रुक्मिण्याः
ननन्द सुभद्रा
सत्यं सत्यम्
आं भगिनि अर्जुनस्य पृथिव्य धृतराष्ट्रः
धृतराष्ट्रः सत्यं पितृव्यः
सहोदर
पितुः सहोदर अग्रे
दुर्योधनस्य मातुलः शकुनिः
सत्यं सत्यं
मातुः सहोदर मातुलः
मातुलः नाम मातुः सहोदरः
सहोदरः ओके कंसस्य भगिन्याः भगिनेयः भागिनेयः कृष्णः
सत्यं
भगिन्याः पुत्रः
सत्यं
भगिन्याः पुत्रः
भागिनेयः
कृष्णः भागिनेयः ओके अर्जुनस्य पृथिव्य गान्धारी
सत्यं
ओके अभिमन्युस्य मातुलानि
अभिमन्युः
अन्युः ओके
तस्य षष्टिरूपं कथं भवति गुरुः गुरुः शब्दं स्वीकरोतु गुरुः शब्दस्य षष्टि
गुरोः
सत्यम् अभिमन्युः
अभिमन्योः मातुलानि रुक्मिणीः रुक्मिणी
रुक्मिणी तावदेव तावदेव
आं भगिनि ओके
समीचीनम् समीचीनमस्ति
आं भगिनि
एकनिमिषः